अस्ति कस्मिन् चित् जल आशये कम्बुग्रीवः नाम कच्छपः तस्य च संकट विकट नाम्नी मित्रे हंसजातीये परमस्नेहम् आश्रिते नित्यम् एव सरः तीरम् आसाद्य तेन सह अनेक देव ऋषि महर्षीणां कथाः कृत्वा अस्तमयवेलायां स्वनीडसंशयं कुरुतः अथ गच्छता कालेन अवृष्टिवशात् सरः शनैः शनैः शोषम् अगमत् ततः तद् दुःख दुःखितौ तौ ऊचतुः भोः मित्र जम्बालशेषम् एतत् सरः सञ्जातम् तत् कथम् भवान् भविष्यति इति व्याकुलत्वम् नः हृदि वर्तते तत् श्रुत्वा कम्बुग्रीवः आह भोः साम्प्रतम् न अस्ति अस्माकम् जीवितव्यम् जल अभावात् तथा अपि उपायः चिन्त्यताम् इति उक्तम् च त्याज्यम् न धैर्यम् विधुरे अपि काले धैर्यात् कदाचिद् गतिम् आप्नुयात् सः यथा समुद्रे अपि च पोतभङ्गे संयात्रिकः वाञ्छति तर्तुम् एव अपरं च मित्र अर्थे बान्धव अर्थे च बुद्धिमान् यतते सदा जातासु आपत्सु यत्नेन जगाद इदं वचः मनुः तद् आनीयताम् काचित् दृढरज्जुः लघुकाष्ठम् वा अनुइष्यताम् च प्रभूतजलसनाथम् सरः येन मया मध्यप्रदेशे दन्तैः गृहीते सति युवाम् कोटिभागयोः तत्काष्ठम् मया सहितम् सङ्गृह्य तत् सरः नयथः तौ ऊचतुः भोः मित्र एवम् करिष्यावः परम् भवता मौनव्रतेन स्थातव्यम् नो चेत् तव काष्ठात् पातः भविष्यति। तथा अनुष्ठिते गच्छता कम्बुग्रीवेण अधः भाग विअवस्थितं किञ्चित् पुरम् आलोकितं तत्र ये पौराः ते तथा नीयमानं विलोक्य सविस्मयम् इदं ऊचुः अहो चक्र आकारं किम् अपि पक्षिभ्यां नीयते पश्यत पश्यत अथ तेषां कोलाहलम् आकर्ण्य कम्बुग्रीवः आह भोः किम् एषः कोलाहलः इति वक्तुमनाः अर्ध उक्ते पतितः पौरैः खण्डशः कृतः च अतः अहम् ब्रवीमि सुहृदाम् हितकामानाम् इति तथा च अनागत विधाता च प्रति उत्पन्न मतिः तथा द्वौ एतौ सुखम् एधेते यद् अविष्यः विनश्यति।